तृतीयः परिच्छेदः कैलासवर्णनम् रेणुकावतरणकारणं च कैलासवर्णनम् कदाचिदथ कैलासे कलधौतशिलामये गन्धर्ववामनयना क्रीडामौक्तिकदर्पणे मन्दारवकुलाशोक माकन्दप्रायभूरुहे मल्लेमरन्दनिष्यन्द पानपीनमधुव्रते कुङ्कुमस्तबकामोद कूलङ्कषहरिन्मुखे कलकण्ठकुलालाप कन्दलद्रागबन्धुरे किन्नरीगीतमाधुर्य परिवाहितगौहरे सानन्दवरयोगीन्द्र वृन्दालङ्कृतकन्दरे हेमारविन्दकलिका सुगन्धीरसमानसे शातकुम्भमयस्तम्ब शतोत्तुङ्गविराजिते माणिक्यदीपकलिका मरीचिद्योतितान्तरे द्वारतोरणसंरूढ शङ्खपद्मनिधिद्वये मुक्तातारकितोदार वितानाम्बरमण्डिते स्पर्शलक्षितवैडूर्य मयभित्ति परम्परे सञ्चरत् प्रथमश्रेणी पदवाचालनूपुरे प्रवालवलभे शृङ्ग शृङ्गारमणिमण्टपे सिंहासनासीनपरमेश्वरवर्णनम् वन्दारुदेवमुकुट मन्दाररसवासितम् रत्नसिंहासनम् दिव्यम् अध्यस्तम् परमेश्वरम् तमास्थानगतम् देवम् सर्वलोकमहेश्वरम् त्रय्यन्तकमलारण्य विहारकलहंसकम् उदारगुणमोङ्कार शुक्तिकापुटमौक्तिकम् सर्वमङ्गलसौभाग्य समुदायनिकेतनम् संसारविषमूर्च्छालु जीवसञ्जीवनौषधम् नित्यप्रकाशनैर्मल्य कैवल्यसुरपादपम् अनन्तपरमानन्द मकरन्दमधुव्रतम् आत्मशक्तिलता पुष्यत् त्रिलोके पुष्पकोरकम् ब्रह्माण्डकुण्डिकाषण्ड पिण्डीकरणपण्डितम् समस्तदेवताचक्र चक्रवर्तिपदे स्थितम् चन्द्रबिम्बायुतच्छायादायादद्युतिविग्रहम् మాణిక్యముకుటజ్యోతిర్మంజరీ పింజరాంబరం చూడాలం సోమకలయా సుకుమారభిసాభయా కళ్యాణపుష్పకలికా కర్ణపూరమనోహరం ముక్తావలయ సంబద్ధ ముండమాలా విరాజితం పర్యాప్త చంద్ర సౌందర్య పరిపంతి ముఖశ్రియం ప్రాతస్సం ఫుల్లకమల పర్యాయ త్రిలోచనం మందస్మితమితాలాప మధురాధర పల్లవం గండమండల పర్యంత క్రీడన్మకరకుండలం కాలిమ్నా కాలకూటస్య కంఠనాలే కలంకితం మణికంకణకేయూర మరీచికరపల్లవై చతుర్భి సంవిరాజంతం బాహుమందారశాఖిభి గౌరీపయోధరాశ్లేష కృతార్తభుజమధ్యమం సువర్ణ బ్రహ్మసూత్రాంకం సూక్ష్మకౌశేయవాససం నాభిస్థానావలంబిన్యా నవమౌక్తికమాలయా గంగయేవ కృతాశ్లేషం మౌలిభాగావతీర్ణయా పదేన మణిమంజీర ప్రభాపల్లవితశ్రియా చంద్రవత్స్ఫాటికం పీఠం సమావృత్య స్థితం పురః శక్తివర్ణనం వామపార్శ్వనివాసిన్యా మంగళప్రియవేషయా సమస్తలోకనిర్మాణ సమవాయస్వరూపయా ఇచ్ఛాజ్ఞానక్రియారూప బహుశక్తి విలాసయా విద్యాతత్వప్రకాశిన్యా వినాభాగవిహీనయా సంసార విషకాంతార దాహదావాగ్నిలేఖయా ధమ్మిల్ల మల్లికామోద జంకుర్వద్భృంగమాలయా సంపూర్ణచంద్రసౌభాగ్య సంవాదిముఖపద్మయా నాసామౌక్తికలావణ్య నాసీరస్మితశోభయా మణితాటంకరంగాంతర్వలితాపాంగలీలయా నేత్రద్వితయ సౌందర్య నిందితేందీవరత్విషా కుసుమాయుధకోదండ కుటిలభ్రూవిలాసయా బందూకకుసుమఛాయా బందుభూతాధరశ్రియా కంఠనాలజితానంగ కంబుబిబ్బోక సంపదా బాహుద్వితయ సౌభాగ్య వంచితోత్పలమాలయా స్థిరయౌవనలావణ్య శృంగారిత శరీరయ అత్యంత కఠినోత్తుంగ పీవరస్తన భారయ మృణాల వల్లరే తంతు బంధుభూతావలగ్నయ శృంగారతటినేతుంగ పులినశ్రోణి భారయ కుసుంభ కుసుమచ్ఛాయ కోమలాంబరశోభయ శృంగారోద్యాన సంరంభ రంభాస్తంభోరుకాండయ చ్యూత ప్రవాల సుషమా సుకుమార పదాబ్జయ స్థిరమంగళ శృంగార భూషణాలంకృతాంగయ హారనోపురకేయూర చమత్కృత శరీరయ చక్షురానందలతయా సౌభాగ్యకుల విద్యయా ఉమయా సమమాసీనం లోకజాలకుటుంబయా అపూర్వరూపమభజన్ పరివారాసమంతతః దేవతానాం సేవావర్ణనం పుండరీకాకృతిం స్వచ్ఛం పూర్ణచంద్రసహోదరం దధౌ తస్య మహాలక్ష్మీ శితమాతపవారణం తంత్రీఝంకారశాలిన్యా సంగీతామృత విద్యయా ఉపతస్థే మహాదేవం ఉపాంతే చ సరస్వతీ ఝణత్కంకణజాతేన హస్తేనోపనిషద్వధూ ఓంకారతాళవృంతేన వీజయామాస శంకరం చలచ్చామరికాహస్తా ఝంకుర్వన్మణికంకణాః ఆసేవంతతమీశానం అభితో దివ్యకన్యకాః చామరాణాం విలోలానాం మధ్యే తన్ముఖమండలం రరాజరాజహంసానాం భ్రమతామివ పంకజం మంత్రేణ తమసేవంత వేదాసాంగ విభూతయః భక్త్యా చూడామణిం కాంతం వహంత ఇవ మౌలివిః తదీయాయుధధారిణ్యః తత్సమాన విభూషణాః అంగభూతాస్త్రియః కాశ్చిద్ ఆసేవంతతమీశ్వరం ఆప్తాధికారిణః కేచిత్ అనంత ప్రముఖా అపి అష్టౌ విద్యేశ్వరా దేవం అభజంత సమంతతః తతో నందీ మహాకాలః చండో భృంగిరిటిస్తతః సేనానిర్గజవక్త్రశ్చ రేణుకో దారుకస్తథా घण्टाकर्णः पुष्पदन्तः कपाले वीरभद्रकः एवमाद्या महाभागा महाबलपराक्रमाः निरङ्कुशमहासत्त्वा भेजिरे तम् महेश्वरम् अणिमादिकमैश्वर्यम् येषाम् सिद्धेरपोहनम् ब्रह्मादयसुरा येषाम् आज्ञालङ्घनभीरवः मोक्षलक्ष्मीपरिष्वङ्ग मुदितायेऽन्तरात्मना येषामीषत्करम् विश्व सर्गसंहारकल्पनम् ज्ञानशक्तिः परा येषाम् सर्ववस्तुप्रकाशिनी आनन्दकणिका येषाम् हरिब्रह्मादिसम्पदः आकाङ्क्षन्ते पदम् येषाम् योगिनो योगतत्पराः काङ्क्षणीयफलो येषाम् सङ्कल्पः कल्पपादपः कर्मकालादिकार्पण्य चिन्ता येषाम् न विद्यते तेषाम् विक्रमसन्नाः मृत्योरपि च मृत्यवः ते सारूप्यपदम् प्राप्ता प्रमथाभेजिरे शिवम् ब्रह्मोपेन्द्रमहेन्द्राद्या विश्वतन्त्राधिकारिणम् आयुधालङ्कृतप्रान्ता परितस्तम् शिशेविरे आदित्या वसवो रुद्रा यक्षगन्धर्वकिन्नराः दानवा राक्षसा दैत्या सिद्धा विद्याधरोरगाः अभजन्त महादेवम् अपरिच्छिन्नसैनिकाः वसिष्ठो वामदेवश्च पुलस्त्यागस्त्यशौनकाः दधीचिर्गौतमश्चैव सानन्दशुकनारदाः उपमन्यो भृगुव्यास पराशरमरीचयः इत्याद्या मुनयः सर्वे नीलकण्ठम् शिशेविरे पार्श्वस्थपरिवाराणाम् विमलाङ्गेषु बिम्बितः सर्वान्तर्गतमात्मानम् सरेजे दर्शयन्निव परमेश्वरस्य राजव्यापारवर्णनम् क्षणम् सशम्भुर्देवानाम् कार्यभागम् निरूपयन् क्षणम् गन्धर्वराजानाम् गानविद्याम् विभावयन् ब्रह्मविष्णुवादिभिर्देवै क्षणमालापमाचरन् क्षणम् देवमृगाक्षीणाम् लालयन् नृत्यविभ्रमम् व्यासादीनां क्षणं कुर्वन् वेदोच्चारेषु गौरवम् विदधानक्षणं देव्या मुखे बिम्बाधरे दृशः हास्यनृत्यं क्षणं पश्यन् भृङ्गिना परिकल्पितम् नन्दिना वेत्रहस्तेन सर्वतन्त्राधिकारिणा अमुञ्चता सदा पार्श्वम् आत्माभिप्रायवेदिना चोदितान् वासयन् कांश्चिद् विसृजन् भ्रूविलासतः सम्भावयंस्तथा चान्यान् अन्यानपि नियामयन् समस्तभुवनाधीश मौलिलालितशासनः अकुण्ठशक्तिरव्याज लावण्यललिताकृतिः स्थिरयौवनसौरभ्य शृङ्गारितकलेवरः आत्मशक्त्यमृतास्वाद रसोल्लासितमानसः स्वाभाविकमहैश्वर्य विश्रामपरमावधिः निष्कलङ्कमहासत्त्व निर्मितानेकविग्रहः अखण्डारातिदोर्दण्ड कण्डोखण्डनपण्डितः चिन्तामणिः प्रपन्नानाम् श्रीकण्ठः परमेश्वरः सभान्तरगतम् तन्त्रम् रेणुकम् गणनायकम् प्रसादम् सुलभम् दातुम् ताम्बूलम् सतमाह्वयत् शम्भोराह्वानसन्तोष सम्भ्रमेणैव दारुकम् उल्लङ्घ्य पार्श्वमगमत् लोकनाथस्य रेणुकः तमालोक्य विभुस्तत्र समुल्लङ्घितदारुकम् माहात्म्यम् निजभक्तानाम् द्योतयन्निदमब्रवीत् रे रेणुकदुर्बुद्धे कथमेष त्वयाधुना उल्लङ्घितः सभामध्ये मम भक्तो हि दारुकः लङ्घनम् मम भक्तानाम् परमानर्थकारणम् आयुः श्रियम् कुलम् कीर्तिम् निहन्ति हि शरीरिणाम् मम भक्तमवज्ञाय मार्कण्डेयम् पुरायमः मत्पादताडनादासीत् स्मरणीयकलेवरः भृगोश्च शङ्कुकर्णस्य मम भक्तिमतोस्तयोः कृत्वानिष्टमभूद्विष्णुः विकेशो दशयोनिभाक् मद्भक्तेन दधीचेन कृत्वा युद्धम् जनार्दनः भग्नचक्रायुधः पूर्वम् पराभवमुपागमत् कृताश्वमेधो दक्षोऽपि मद्भक्तांश्च गणेश्वरान् अवमत्य सभा मध्ये मेषवक्त्रो भवत्पुरा श्वेतस्य मम भक्तस्य दुरतिक्रमतेजसः औदासीन्येन कालोऽपि मया दग्धः पुराभवत् एवमन्येऽपि बहवो मद्भक्तानामतिक्रमात् परिभूता हताश्चासन् भक्ता मे दुरतिक्रमाः अविचारेण मद्भक्तो लङ्घितो दारुकस्त्वया येष त्वम् रेणुकानेन जन्मवान् भवभूतले श्रीरेणुकस्य शिवविज्ञापनम् इत्युक्तः परमेशेन भक्तमाहात्म्यशंसिना प्रार्थयामास देवेशम् प्रणिपत्य स रेणुकः भवदाह्वानसम्भ्रान्त्या मया ज्ञानाद्विलङ्घितः दारुकोऽयम् ततः शम्भो पाहि माम् भक्तवत्सल मानुषीम् योनिमासाद्य महादुःखविवर्धिनीम् जात्यायुर्भोगवैषम्य हेतुकर्मोपपादिनी समस्तदेवकैङ्कर्य कार्पण्यप्रसवस्थलीम् महातापत्रयोपेताम् वर्णाश्रमनियन्त्रिताम् विहाय त्वत्पदाम्भोज सेवाम् किम् मा वसाम्यहम् यथा मे मानुषो भावो न भवेत् क्षितिमण्डले तथा प्रसादम् देवेश विधेहि करुणानिधे अवतार प्रयोजनम् इति सम्प्रार्थितो देवो रेणुकेन महेश्वरः मा भैषीर्मम भक्तानाम् कुतो भीतिरिहेष्यति श्रीशैलस्योत्तरे भागे त्रिलिङ्गविषये शुभे क्वल्यपाक्यभिधानोऽस्ति कोऽपि ग्रामो महत्तरः सोमेश्वराभिधानस्य तत्र वासवतो मम अस्पृशन्मानुषम् भावम् लिङ्गात् प्रादुर्भविष्यसि मदीयलिङ्गसम्भूतम् मद्भक्तपरिपालकम् विस्मिता मानुषाः सर्वे त्वाम् भजन्तो मदाज्ञया मदद्वैतपरम् शास्त्रम् वेदवेदान्तसम्मतम् स्थापयिष्यसि भूलोके सर्वेषाम् हितकारकम् मम प्रतापमतुलम् मद्भक्तानाम् विशेषतः प्रकाशय महीभागे वेदमार्गानुसारतः इत्युक्त्वा परमेश्वरस्स भगवान् भद्रासनादुत्थितो ब्रह्मोपेन्द्रमुखान् विसृज्य विभुदान् भ्रूसंज्ञया केवलम् पार्वत्या सहितो गणैरभिमतैः प्रापस्वमन्तःपुरम् क्षोणीभागमवातरत्पशुपतेराज्ञावशाद्रेणुकः ॐ तत्सदिति श्रीशिवगीतेषु सिद्धान्तागमेषु शिवाद्वैतविद्यायाम् शिवयोगशास्त्रे श्रीरेणुकागस्त्यसंवादे वीरशैवधर्मनिर्णये श्रीशिवयोगिशिवाचार्यविरचिते श्रीसिद्धान्तशिखामणो शिवसभावर्णनम् नाम तृतीयः परिच्छेदः।